अथ चेदवधि प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना धृतराष्ट्रसुतेन सुत्यजाः चिरमास्वाद्य नरेन्द्रसम्पदः। अथेति अथ अवधिः कालः प्रतीक्ष्यते चेत् अवधिस्त्ववधाने स्यात् सीम्नि काले बिलेऽपि च इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसम्पदः राज्यसम्पदः। नरेन्द्रेति वा पदच्छेदः। चिरं त्रयोदशवर्षाणि आस्वाद्य अनुभूय कथं सुत्यजाः। ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्षन्त एवेति अवधिप्रतीक्षणं व्यर्थमित्यर्थः। द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् जननाथ तवानुजन्मनाम् कृतमाविष्कृतपौरुषैर्भुजैः। द्विषतेति अथवा द्विषता विहितं पुनः प्रत्यर्पितम् आत्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि लभेः कर्मणि लुट्। हे जननाथ तव अनुजन्मनाम् अनुजानाम् आविष्कृतपौरुषैः प्रकटितपराक्रमैः भुजैः कृतम् अलम्। अस्मद्भुजैः न किञ्चित् साध्यमित्यर्थः। राज्यदानादानयोः द्विषतामेव स्वातन्त्र्ये अस्मद्भुजवैफल्यात्। क्षत्रियस्य विजेतव्यम् इति शास्त्रात् क्षात्रेणैव राज्यम् ग्राह्यमिति भावः। कृतमिति प्रतिषेधार्थम् अव्ययम् चादिषु पठ्यते। कृतमिति निवारणनिषेधयोः इति गणव्याख्याने। भुजैरिति गम्यमानसाधनक्रियापेक्षया करणत्वात् तृतीया। उक्तम् च न्यासोद्योते न केवलम् श्रूयमाणैव क्रिया निमित्तम् कारकभावस्य अपि तु गम्यमानापि इति। मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयम् हतैः लघयन् खलु तेजसा जगत् नमःनिच्छति भूतिमन्यतः। मदेति मृगाधिपः सिंहः मदसिक्तमुखैः मदवर्षिभिरित्यर्थः। स्वयम् स्वेनैव हतैः करिभिः वर्तयते वृत्तिम् करोति तैरेव जीवतीत्यर्थः। चौरादिकात् वृतेर्लट्। भौवादिकस्य तु अणावकर्मकात् चित्तवत्कर्तृकात् इति परस्मैपदनियमादिति। तथा हि तेजसा प्रभावेण तेजो बले प्रभावे च ज्योतिश्चर्चिषि रेतसि इति वैजयन्ति। जगत् लघयन् लघूकुर्वन् महान् तेजस्वी अन्यतः अन्यस्मात् पुरुषात् भूतिम् वृद्धिम् नेच्छति खलु। न हि तेजस्विनः परायत्तवृत्तित्वम् युक्तम्। मनुवचनम् तु अशूरविषयमिति भावः। विशेषेण वक्ष्यमाणसामान्यसमर्थनरूपः अर्थान्तरन्यासः। अभिमानधनस्य गत्वरैः असुभिस्थास्नु यशश्चिचीषतः अचिरांशु विलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम्। अभिमानेति अभिमानधनस्य वैरिनिर्यातनमात्रनिष्ठस्य अत एव गत्वरैः गमनशीलैः अस्थिरैः। गत्वरश्च इति क्वरबन्तो निपातः। అశుభిః ప్రాణైః కరణైః పుంసి భూమ్యసవః ప్రాణాః ఇత్యమరః స్థాష్ణు స్థిరం గ్లాదిస్థశ్చ గుష్ణుః ఇతి గుష్ణుప్రత్యయః యశః చిచీషతః చేతుం సంగ్రహీతుం ఇచ్ఛతః చినోతేః సన్నంతాత్ శత్రుప్రత్యయః అచిరం అంశవః యస్యాస్స అచిరాంశుః విద్యుత్ తస్యాః విలాసః స్ఫురణం తద్వత్ చంచలా క్షణికేత్యర్థః లక్ష్మీః సంపత్ అనుషంగాత్ ఆగతం ఆనుషంగికం అన్వాచయశిష్టం అల్పం ఫలం మానత్రాణజం యస ఏవ ముఖ్యం ఫలం అభ్యుచ్చయస్తు లక్ష్మీరితి మానినాం ఇదమేవ శ్లాఘ్యం ఇత్యర్థః అత్ర అస్థిర ప్రాణత్యాగేన స్థిరయశస్వీకారాభిధానాత్ న్యూనాధిక విరిరయాఖ్యః పరివృత్త్యలంకారః తదుక్తం కావ్యప్రకాశే పరివృత్తిర్వినిమయో యోర్థానాం స్యాత్ సమాసమైః ఇతి జ్వలితం న హిరణ్యరేతసం చయమస్కందతి భస్మనాం జనః అభిభూతిభయాదసూనతః సుఖముచ్ఛంతి న ధామమానినః జ్వలితమితి జనః భస్మనాం చయం పుంజం ఆస్కందతి పాదాదినా ఆక్రామతి అదాహకత్వాదితి భావః జ్వలితం జ్వలంతం కర్తరి తః మతిబుద్ధి పూజార్థేభ్యశ్చ ఇతి సూత్రే చకారాత్ వర్తమానార్థత్వం హిరణ్యం రేతః యస్య తం హిరణ్యరేతసం అగ్నిం నాస్కందతి దాహకత్వాదితి భావః అతో హేతోః మానినః అభిభూతిభయాత్ ప్రాణలోభేన తేజస్త్యాగే పరిభవో భవిష్యతీతి భయాత్ అసూనేవ సుఖం అక్లిష్టం ఉజ్జంతి ధామ తేజస్తు నోజ్జంతి మానహానికరాత్ జీవనాత్ స్వతేజసా మరణమేవ వరమిత్యర్థః పూర్వతర శ్లోకవత్ అర్థాంతరన్యాసః కిమపేక్ష్య ఫలం పయోధరాన్ ధ్వనతః ప్రార్థయతే మృగాధిపః ప్రకృతిః ఖలు సా మహీయసః సహతేనన్యసమున్నతిం యయా కిమితి మృగాధిపః సింహః కిం ఫలం ప్రయోజనం అపేక్ష్య ధ్వనతః గర్జతః ధరంతీతి ధరాః పచాద్యచ్ పయసాం ధరాః తాన్ పయోధరాన్ మేఘాన్ ప్రార్థయతే అభియాతి యాచ్నాయామభియానే చ ప్రార్థనా కథ్యతే బుధైః ఇతి కేశవః యద్వా అవరుణద్ధీత్యర్థః ప్రా అర్థయతే ప్రాస్యాద్ యాచ్నావరోధయోః ఇతి అభిధానాత్ ప్రా అవరోధేన ప్రా ఇతి తృతీయాంతం ఆకారాంతస్య ప్రాశబ్దస్య యోగవిభాగాత్ ఆతోధాతోః ఇత్యాలోపః తథా హి మహీయసః మహత్తరస్య సా ప్రకృతిః ఖలు యయా ప్రకృత్యా అన్యసమున్నతిం పరవృద్ధిం న సహతే మహతః పరభంజనమేవ పురుషార్థ ఇత్యర్థః పూర్వవదలంకారః కురుతన్మతిమేవ విక్రమే నృపనిర్ధూయతమః ప్రమాదజం ధ్రువమేతదవేహి విద్విషాం త్వదనుత్సాహహతా విపత్త कृतयः कुरु तदिति हे नृप तत् तस्मात् उक्तरीत्या पराक्रमोत्साहयोः हेतुत्वाद्धेतोः यत्तद्यतस्ततो हेतौ इत्यमरः प्रमादजं तमः मोहं निर्धूय निरस्य विक्रमे पौरुषे एव मतिं कुरु विक्रममेव अंगीकुरु न तु उपायांतरमित्यर्थः न च विक्रमवैफल्यशंका कार्या इत्याह ध्रुवमिति विद्विषां विपत्तयः त्वदनुत्साहहताः तव अनुत्साहेन अव्यवसायेन हताः प्रतिबद्धाः अन्यथा प्रागेव विपद्येरन्निति भावः इत्येतत् ध्रुवं निश्चितं अवेहि विद्धि ध्रुवं नित्ये निश्चिते च इति शाश्वतः द्विरदानिव दिग्विभावितान् चतुरस्तोयनिधीनिवायतः प्रसहेत रणेतवानुजान् द्विशतां कश्चतमन्युतेजसः द्विरदानिति दिग्विभावितान् दिक्षु प्रसिद्धान् तान् आयतः आगच्छतः आङ्पूर्वात् इन्धातोः शत्रुप्रत्ययः चतुरः द्विरदान् दिग्गजानिव तथा उक्तविशेषणान् चतुरः तोयनिधीन् इव रणे आयतः दिग्विभावितान् शतमन्युतेजसः इन्द्रविक्रमान् चतुरः तव अनुजान् द्विशताम् मध्ये कः प्रसहेत सोढुम् शक्नुयादित्यर्थः शकिलिङ्ग् च इति शक्यार्थे लिङ्ग् अतः निःशङ्कम् प्रवर्तस्वेति भावः ज्वलतस्तव जातवेदसः सततम् वैरिकृतस्य चेतसी विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ज्वलत इति तव चेतसि सततम् ज्वलतः वैरिकृतस्य जातवेदसः क्रोधाग्नेरित्यर्थः शिवेतरा अशिवा अमङ्गला वैधव्यदुःखजनकत्वादिति भावः रिपुनारीनयनाम्बुसन्ततिः वैरिवनिताश्रुप्रवाहः शमम् विदधातु वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसम्भवात् अवश्यम् तद्वधः त्वया कर्तव्यः इत्यर्थः क्रोधस्य विषयनिगरणेन विषयिणः जातवेदस एव उपनिबन्धात् अतिशयोक्तिरलङ्कारः तदुक्तम् विषयस्यानुपादानात् विषय्युपनिबध्यते यत्र सातिशयोक्तिः स्यात् कवेः प्रौढोक्तिजीविता इति तत्रापि क्रोधस्य जातवेदसः भेदेऽपि अभेदाध्यवसायात् भेदे अभेदरूपा तत एव अम्बुनिर्वाप्यत्वोक्तिश्च घटते तथा च यथा अम्बुसेकेन अग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यम् गम्यते इति दर्शितविक्रियम् सुतम् मरुतः कोपपरीतमानसम् उपसान्त्वयितुम् महीपतिः द्विरदम् दुष्टमिवोपचक्रमे इति उक्तरीत्या दर्शिता विक्रिया विकारः वागारम्भात्मकः येन तम् कोपपरीतमानसम् कोपाक्रान्तचित्तम् इदम् विशेषणद्वयम् द्विरदेऽपि योज्यम् मरुतः सुतम् भीमं महीपतिः युधिष्ठिरः दुष्टं द्विरदमिव एतेन भीमस्य शौर्यमेव न बुद्धिरस्तीति गम्यते उपसान्त्वयितुम् अनुनेतुम् उपचक्रमे प्रवृत्तः प्रोपाभ्याम् समर्थाभ्याम् इति आत्मनेपदम् राज्ञा तावत् उपकारविशेषापेक्षया कथञ्चिदवशो जनः शनैः शनैः द्विरदवत् वशीकरणीयः न तु त्याज्य इति भावः।